ॐ नमो भगवते वासुदेवाय। अथ त्रयोदशोऽध्यायः। श्रीशुक उवाच, मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः, सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु। इक्ष्वाकुर्नभगश्चैव दृष्टः शर्यातिरेव च, नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते। करुषश्च पृषद्धश्च दशमो वसुमान् स्मृतः, मनोर्वैवस्वतस्यैते दशपुत्राः परन्तप, आदित्या वसवो रुद्रा विश्वे देवामरुद्गणाः, अश्विना वृभवो राजन्निन्द्रस्तेषाम् पुरन्दरः, कश्यपोत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः, जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः। अत्रापि भगवज्जन्म कश्यपाददितेरभूत्। आदित्या नाम वरजो विष्णुर्वामनरूपधृक्। संक्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते, भविष्याणि अथ वक्ष्यामि विष्णो शक्त्यान्वितानि च। विवस्वतश्च द्वे जाये विश्वकर्मसु ते उभे, संज्ञा छाया च राजेन्द्र ये प्रागपि ते तव, तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः, यमो यमी श्राद्धदेवश्छायाश्च सुताञ्छृणु। सावर्णिष्टपति कन्या भार्या संवरणस्य या, शनैश्चरस्तृतीयो भूदश्विनौ वडवात्मजौ, अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः, निर्मोकविरजस्काद्याः सावर्णितनया नृप, तत्र देवासु तपसो विरजा अमृतप्रभाः, तेषाम् विरोचनसुतो बलिरिन्द्रो भविष्यति। दत्त्वे माम् याचमानाय विष्णवे यः पदत्रयम्, राद्धमिन्द्रपदम् हित्वा तत सिद्धिमवाप्स्यति। योऽसौ भगवता बद्धः प्रीतेन सुतले पुनः, निवेशितोऽधिके स्वर्गादधुनास्ते स्वराडिव, गालवो दीप्तिमान् रामो द्रोणपुत्रः कृपस्तथा, ऋष्यशृङ्गः पिता अस्माकम् भगवान् बादरायणः, इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः। इदानीमासते राजन् स्वे स्वाश्रममण्डले, देवगुह्यात् सरस्वत्याम् सार्वभौम इति प्रभुः, स्थानम् पुरन्दराद्धृत्वा बलये दास्यतीश्वरः। नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः, भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप, पारामरीचिगर्भाद्या देवा इन्द्रोद्भुतः स्मृतः, द्युतिमत्प्रमुखास्तत्र भविष्यन्त्रिषयस्ततः। आयुष्मतोऽम्बुधाराया मृषभो भगवत्कला, भविता येन सम्राद्धाम् त्रिलोकीम् भोक्ष्यतेऽद्भुतः। दशमो ब्रह्मसावर्णिरुपश्लोकसुतो महान्, तत्सुता भूरिषेणाद्या हविस्मत्प्रमुखा द्विजाः, हविस्मान् सुकृतिः सत्यो जयो मूर्तिस्तदा द्विजाः, सुवासनविरुद्धाद्या देवा शम्भुः सुरेश्वरः, विश्वक्सेनो विशूच्याम् तु शम्भो सख्यम् करिष्यति। जातस्वांशेन भगवान् गृहे विश्वसृजो विभुः, मनुर्वै धर्मसावर्णिरेकादशम आत्मवान्, अनागतास्तत्सुताश्च सत्यधर्मादयो दश, विहङ्गमाः कामगमा निर्वाणरुचयः सुराः, इन्द्रश्च वैधृतस्तेषाम् ऋषयश्चारुणादयः, आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः। वैधृतायाम् हरेरंसस्त्रिलोकीम् धारयिष्यति। भविता रुद्रसावर्णी राजन्द्वादशमो मनुः, देववानुपदेवश्च देवश्रेष्ठादयः सुताः, ऋतधामा च तत्रेन्द्रो देवाश्च हरितादयः, ऋषयश्च तपो मूर्तिस्तपस्व्याग्निध्रकादयः, स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः, अन्तरम् सत्यसहसः सूनृतायाः सुतो विभुः। मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान्, चित्रसेन विचित्राद्या देवसावर्णिदेहजाः, देवाः सुकर्मसूत्राम संज्ञा इन्द्रो दिवस्पतिः, निर्मोकतत्त्वदर्शाद्या भविष्यन्त्रिषयस्तदा, देवहोत्रस्य तनय उपहर्ता दिवस्पतेः, योगेश्वरो हरेरंशो बृहत्याम् सम्भविष्यति, मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति। उरुगम्भीरबुद्ध्याद्या इन्द्रसावर्णिवीर्यजाः, पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति, अग्निर्बाहुः शुचिशुद्धो माघदाद्यास्तपस्विनः, सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः, वितानायां महाराज क्रियातन्तून्वितायिता राजंश्चतुर्दशयितानि त्रिकालानुगतानि ते प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्ययः। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम संहितायाम अष्टमस्कंधे मन्वन्तरानुवर्णनम नाम त्रयोदशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।